इन्द्रमच्छसुता जिमे वृषाणम् यन्तु हराजः सृष्टी जाता स इन्द्रवस्वर्विदाः अयम् भराजसा नसिरिन्द्राय भवते सुतः सोमो चेत्रस्य चेतति यथा विदे अस्येदिन्द्रो मदेष्वाद्राभम् गृह्णीतसा नसिम् वज्रम् च वृषाणम् भरत्समप्सुजित् रथन् वासोमजाग्रेभिरिन्द्रायेन्दो परिस्रव युवन्तम् सुष्ममाभरास्वर्विदम् इन्द्राय वृषाणम् मदम् पवस्व विश्वदर्शतः सहस्रायामापधिकृद्वीचक्षणः अस्मभ्यम् गातु वित्तमो देवेभ्यो मधुमत्तमः सहस्रम् जाहि पतिभिः कनिक्रदत् अमस्वदेववीतजयिन्दो धाराभिरोजसा आरणसम्मधुमान् सोमनस्सदः तवद्रत्सावूतप्रदयिन्द्रम् मदाय वामृदुः त्वाम् देवासो अमृताय कम्पापुः आनस्तुतासयिन्दवः पुनानाथावतारयम् वृष्टिद्यावोरीत्यापस्वर्विदाः सोमः पुनानभूर्मिणा व्योमारम् विधावति अग्रे वाचः पवमानः कनिक्रदत् देभिर्हिन्वन्ति वाजिनम् वने क्रीळन्दवत्यभिम् अभित्रे पृष्ठम् हदयः समस्वरन् असर्जिकलशाम् अभिमेढे सप्तिर्नवाजयुः पुनानो वाचम् जनयन्नदिष्वदत् अपतेऽर्यतो हरिरदिह्वराम् शिरम् ह्या अभ्यर्षन् स्तोतृभ्यो वीरभद्यसाः अजापावस्वदे भजर्मधोद्धारा असृक्षत रेभन् पवित्रम् पर्येडिभिः स्वताः